इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचिका निधिः तिवारी। अथ वार्ताः। अर्थसंकल्पना सत्रात् पूर्वं प्रशासनेन अद्य नवदिल्ल्यां सर्वदलीयोपवेशनं समाहूतम्। उपवेशनावधौ प्रशासनं सदनस्य नेतृभिः साकं चर्चां करिष्यति, अथ च सत्रस्य अस्य सुचारुतया संचालनार्थं दलैः साहाय्यं सहयोगं च याचयिष्यति। ध्यातव्यमस्ति यत् जनवरी मासस्य एकत्रिंशत् दिनांके संसदः उभयोः सदनयोः संयुक्तोपवेशनं राष्ट्रपतिः द्रौपदी मुर्मुः सम्बोधयिष्यति। तदनु इदं अर्थसंकल्पना सत्रं समारप्स्यते। तस्मिन्नेव दिवसे केन्द्रीय वित्तमन्त्री निर्मला सीतारामन् इत्येषा आर्थिक सर्वेक्षणं प्रस्तोष्यति, यदा राष्ट्रपतेः अभिभाषणानन्तरं लोकसभा राज्यसभे अल्पकालाय एकत्रिते भविष्यतः। वित्तमन्त्री शनिवासरे 25,000-26,000-2,000 अर्थसंकल्पनापत्रं प्रस्तोष्यति। एतदतिरिच्य लोकसभा राज्यसभा च सोमवासरे राष्ट्रपतेः अभिभाषणे धन्यवादप्रस्तावं चर्चिष्यतः। शुक्रवासराद् भविष्यमाणस्य अर्थसंकल्पनासत्रस्य प्रथमो भागः फरवरीमासस्य 13 दिनांकं यावत् प्रचलिष्यति, अपि च द्वितीय भागः मार्चमासस्य 10 दिनांकतः अप्रैलमासस्य 4 दिनांकपर्यन्तं प्रचलिष्यति। उत्तरप्रदेशस्य मुख्यसचिवः आरक्षिमहानिदेशकश्च अद्य प्रयागराजनगरं गत्वा ह्यः संगमघट्टे घटितायाः घटनायाः अनन्तरं महाकुम्भस्य सुरक्षाव्यवस्थायाः समीक्षां विधास्यतः। ह्यः जातायां घटनायां 30 जनाः मृत्युम् उपगताः, अथ च 60 जनाः व्रणिताः अभवन्। व्रणितानाम् उपचारः स्थानीय चिकित्सकीय महाविद्यालये प्रचलति। अस्माकं वार्ताहरः सूचितवान् यत् मेलकक्षेत्रे सुरक्षाव्यवस्था संवर्धिता। उत्तरप्रदेशस्य मुख्यमन्त्रिणा योगी आदित्यनाथेन मुख्यसचिवाय आरक्षिमहानिदेशकाय च स्थितिसम्बद्धप्रतिवेदनं समर्पयितुम् आदिष्टम्। मुख्यमन्त्रिणा न्यायिकनिरीक्षणस्यापि आदेशः प्रख्यापितः। त्रिसदस्यात्मकस्य न्यायिकाभियोगस्य संघटनं कृतमस्ति। राष्ट्रपतिः, उपराष्ट्रपतिः, प्रधानमन्त्री च महाकुम्भक्षेत्रे दिवंगतानां जनानां परिजनान् प्रति गभीरं शोकं प्रकटितवन्तः। प्रशासनेन 34,000 कोटिरूप्यकाणां व्ययेन सह राष्ट्रियाकरजाभियानम् अनुमोदितम्। हरितप्रौद्योगिकीनां प्रोत्साहनाय आवश्यकानां महत्वपूर्णानां आकरजसम्पदेभ्यः स्थितिस्थापकमूल्यशृङ्खलायाः निर्माणाय निर्णयोऽयं विहितः। ह्यः नवदिल्ल्यां वार्ताहरान् सम्बोधयन् सूचनाप्रसारणमन्त्री अश्विनी वैष्णवः अर्थव्यवस्थायाः विकासाय महत्वपूर्णानाम् आकरजानां महत्वं प्रतिपादितवान्। असौ अग्रे अवोचत् यत् ऊर्जासञ्चाराय, कृषिक्षेत्राय, रक्षायै, वैद्युतिकीययन्त्राणां, दूरसञ्चाराय, परिवहनाय, आन्तरिक्षयन्त्राणां, परमाणुयन्त्राणां च अन्यक्षेत्राणां कृते खनिजप्रौद्योगिकी महत्वपूर्णा अस्ति इति। अमेरिकादेशस्य डेमोक्रेटिक इत्येतस्य सांसदः रो खन्नाः उद्घोषितवान् यत् रिपब्लिकन दलस्य सांसदः रिच मैक्क्रॉमिक इत्येषः अमेरिकीयसंसदि तेन सह इंडिया कॉकस इत्येतस्य सहाध्यक्षतां करिष्यति। इतः पूर्वं माइक वाल्ज इत्येषः इंडिया कॉकस इत्येतस्य अध्यक्षः आसीत्, यो हि सम्प्रति डोनाल्ड ट्रम्पस्य राष्ट्रिय सुरक्षा परामर्शदत्वेन कार्यरतो विद्यते। टाटा स्टील चतुरंग प्रतिस्पर्धायां भारतस्य डोमराजु गुकेशः नेदरलैंड देशस्य विज्ग आंजी इत्यत्र 10वें चरणे मैक्स वार्मर डैम इत्येनं पराजितवान् इति वार्ताः।